अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी त्रिदिवसीय आधिकारिक प्रवासार्थं सेशेल्स देशस्य विक्टोरिया नगरे सम्प्राप्तः। तमिलनाडु राज्ये वाइको इत्यस्य नेतृत्वे एमडीएमके दलेन डीएमके दलेन सह स्वीय नववर्षीयं गठबन्धनं समाप्तम्। प्रसिद्धः तमिल चलचित्र अभिनेता निदेशकश्च के भाग्यराजः अद्य चेन्नय्यां पञ्चत्वे विलीनः। प्रधानमन्त्री नरेन्द्र मोदी श्वः आकाशवाण्याः मन की बात इति जनप्रिय मासिक कार्यक्रमे देश विदेशस्य जनैः सह स्वीयं मनोगतं विनिमयीकरिष्यति। अमेरिका देशस्य विदेशमन्त्री मार्को रूबियो अवदत् यत् ट्रम्प प्रशासनं भारतं संयुक्त राज्य अमेरिकायाः अत्यन्तं निकटतमेषु रणनीतिक सहयोगिषु अन्यतमं मन्यते। अपि च क्रीडा वार्तासु, फीफा विश्वकप स्पर्धा मालिकायां मिस्र देशः ईरान देशेन सह अन्तिमे जी समूहस्य द्वन्द्वे एकम् एकम् इत्यंकान्तरालेन समतावाप्य प्रथमतया फीफा विश्वकप स्पर्धायाः नॉकआउट इत्येतस्मिन् चरणे प्रविष्टः। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी त्रिदिवसीय प्रवासार्थं सेशेल्स देशस्य राजधान्यां विक्टोरिया नगरे सम्प्राप्तः। सामाजिकान्तर्जालीय प्रेषिते सन्देशे श्रीमोदिना विमानपत्तने सेशेल्स देशस्य राष्ट्रपतिना डॉक्टर पैट्रिक हर्मनी इत्यनेन कृत भव्य स्वागतस्य भूरि भूरि प्रशंसा विहिता। प्रधानमन्त्रिणा प्रतिपादितं यत् सेशेल्स देशः हिन्द महासागरे भारतस्य एकः सामुद्रिक सहयोगी दृढः मित्रदेशश्च वर्तते। मोदी अवोचत् यत् सः अस्याः यात्रायाः माध्यमेन उभयोर्देशयोः दीर्घकालीन सम्बन्धान् सुदृढीकर्तुं नागरिककल्याणाय सहयोगं वर्धयितुं संवादं प्रति आशान्वितो विद्यते। अनेन सहैव तेन विमानपत्तने भारतीय प्रवासी जनसमूहाय अपि हार्दिकं स्वागतार्थं धन्यतावचांसि ज्ञापितानि। गदितं च यत् भारतीय प्रवासीभिः यथा स्वसंस्कृतिः संरक्षिता सा श्लाघनीया वर्तते। अवधेयास्पदं वर्तते यत् प्रधानमन्त्री नरेन्द्र मोदी सेशेल्स देशस्य ऐतिहासिक 50वें स्वतन्त्रता दिवस समारोहस्य मुख्य अतिथिः भविष्यति। तमिलनाडु राज्ये वाइको इत्यस्य नेतृत्वे एमडीएमके दलं डीएमके इत्यनेन सह नववर्षीयं गठबन्धनं समापितवान्। दलस्य सचिवः वाइको वर्यः अद्य चेन्नई नगरे सामान्य परिषदः सभायाः नेतृत्वं कृतवान्। अपि च सभायां गठबन्धनात् बहिर्गन्तुं सामान्यः प्रस्तावः स्वीकृतः। अवधेयं च यत् एमडीएमके दलं 17,000+ वर्षे डीएमके इत्यस्य नेतृत्वे जाते धर्मनिरपेक्ष प्रगतिशील संघटने सम्मिलितः आसीत्। प्रख्यातः तमिल चलचित्राभिनेता निदेशकश्च के भाग्यराजः अद्य प्रातःकाले चेन्नई नगरे दिवंगतः। सः 73 वर्षीयः आसीत्। प्रख्यातः चलचित्र निर्माता भाग्यराजः चित्ताकर्षक चित्रकथायाः विनोदपूर्ण संवादानां च कृते प्रसिद्धः आसीत्, येन सः तमिल चलचित्र जगति अद्वितीयं स्थानम् अवाप्नोत्। तेन 25+ चलचित्राणि निर्देशितानि। प्रायः 75 चलचित्रेषु अभिनयं च अकरोत्। उपराष्ट्रपतिः सीपी राधाकृष्णन वर्यः सुप्रसिद्धस्य चलचित्र निर्मातुः अभिनेतुः चलचित्र कथा लेखकस्य च थिरु के भाग्यराजस्य निधने शोकं प्रकटितवान्। प्रधानमन्त्री नरेन्द्र मोदी श्वः प्रातः 11 आकाशवाण्याः मन की बात इति कार्यक्रमे देशस्य विदेशस्य जनैः सह स्वीय मनोगतं विनिमयीकरिष्यति। मासिक आकाशवाणी कार्यक्रमस्य अयं 35 संस्करणो भविता। कार्यक्रमस्यास्य प्रसारणं कृत्स्नेही आकाशवाणी दूरदर्शन जालपुटे एआईआर न्यूज न्यूज ऑन एआईआर चलदूरभाष्य तन्त्रांशे च युगपद् भविष्यति। अनेन सहैव एआईआर न्यूज, डीडी न्यूज, प्रधानमंत्री कार्यालय, पीएमओ तथा सूचना प्रसारण मंत्रालयस्य यूट्यूब वाहिनीष्वपि अस्य साक्षात् प्रसारणं भविता। हिन्दी प्रसारणस्य अनुपदमेव आकाशवाणी अस्य कार्यक्रमस्य अनुवादं क्षेत्रीय भाषासु अपि प्रसारयिष्यति। अमेरिकादेशस्य विदेशमंत्री मार्को रूबियो प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वस्य भूरिभूरि प्रशंसाम् अकरोत्। तेनोदीरितं यत् भारतेन उल्लेखनीयः आर्थिकविकासः कृतः। सहैव देशोऽयं सम्प्रति वैश्विकमञ्चे इतोऽपि महतीं भूमिकां निर्वहति। व्हाइट हाउस इत्यत्र वार्ताहरैः सह संवादक्रमे रूबियो स्पष्टीकृतवान् यत् ट्रम्प प्रशासनं भारतं संयुक्तराज्य अमेरिकायाः अत्यन्तं निकटतमेषु रणनीतिक सहयोगिषु अन्यतमं मन्यते। तेन प्रख्यापितं यत् प्रधानमन्त्रिणः मोदिनः कुशल नेतृत्वे भारतं दृढं आर्थिक लाभं प्राप्नुवदस्ति, सहैव प्रभावशाली वैश्विक शक्तित्वेन समुदेति। रूबियो एतदपि संसूचयत् यत् प्रधानमन्त्रिणः मोदिनः राष्ट्रपति डोनाल्ड ट्रम्पस्य च सम्बन्धः अतीव घनिष्ठो वर्तते, यः कूटनीतिदृष्ट्या अतीव महत्वपूर्णः अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य उदघोषयत् यत् देशस्य सहकारी यान आह्वान मञ्चस्य भारत टैक्सी इत्यस्य आगामी वर्षद्वयाभ्यन्तरे देशस्य नगरेषु क्षेत्रेषु च विस्तारः करिष्यते। भारत टैक्सी इत्यस्य आधिकारिक शुभारम्भावधौ मन्त्री अमितशाहः सबलं प्रावोचत् यत् एषः प्रयासः सहकारिता क्षेत्रे एकः क्रान्तिकारी पदक्षेपो वर्तते। तेन प्रतिपादितं यत् भारत टैक्सी इत्यस्य मुख्योद्देश्यं वर्तते यत् यानचालकाः सारथी इति नाम्ना सम्बोधिताः भविष्यन्ति, सहैव साक्षात् अंशधारिणः च भविष्यन्ति। विश्वस्य कस्यापि अर्थव्यवस्थायाः शक्तिः तस्य एमएसएमई क्षेत्रस्य योगदाने निहिता अस्ति इति उपराष्ट्रपतिः सीपी राधाकृष्णन् न्यगादीत्। अद्य नवदेहल्यां विश्व एमएसएमई 2026 दिवसावसरे आयोजितम् एकं कार्यक्रमम् अभिसम्बोधयन् तेन प्रख्यापितं यत् भारते एमएसएमई क्षेत्रं प्रथमतया उद्यमीनां साहसस्य उद्यमशीलताया च प्रतीकं वर्तते। प्रधानमन्त्री संग्रहालय पुस्तकालयेन अद्य पूर्व प्रधानमन्त्रिणः पीवी नरसिंह रावस्य 50th जयन्त्यवसरे तस्य जीवनं न्यासं च अभिलक्ष्य एका प्रदर्शनी समायोजिता। अस्याः प्रदर्शिन्याः उद्घाटनं पीएमएमएल कार्यकारी परिषदः अध्यक्षेण नृपेन्द्र मिश्रेण विहितम्। तदनन्तरं प्रधानमन्त्री संग्रहालये आगन्तुकानां कृते इयं मुक्ता कृता। अस्यां प्रदर्शिन्यां पीवी नरसिंह रावस्य सार्वजनिक जीवनस्य उत्कृष्टायाः यात्रायाः संस्मरणानि, दुर्लभानि च छायाचित्राणि, आधिकारिक प्रपत्राणि, भाषणानि, अभिलेखीय सामग्र्यश्च प्रदर्शिताः सन्ति। अमेरिकायाः कैलिफोर्निया राज्यस्य फुलर्टन नगरे प्रवृत्तायां यूएस ओपन बैडमिंटन प्रतियोगितायां भारतस्य देविका सिहागः, रौनक चौहानः च स्वस्व वर्गेषु विजयम् अवाप्य प्रागुपान्त्य चक्रे प्रविष्टवन्तौ। फीफा विश्वकप स्पर्धायां मिस्र देशः ईरान देशेन सह अन्तिमे जी समूहस्य द्वन्द्वे एकम् इति अंकैः समता अवाप्य प्रथमतया फीफा विश्वकप स्पर्धायाः नॉकआउट इति चरणे प्रविष्टः। अस्मिन् द्वन्द्वे ईरान देशस्य रामिन रेजाइन क्रीडायाः नायकत्वेन उद्घोषितः। अधुना राउंड ऑफ 32 चरणे तस्य सम्मुखीकरणं ऑस्ट्रेलिया दलेन सह भविष्यति। इति वार्ताः।